कृपा विष्णुगुरुदेव महेश्वर गुरु साक्षात् परब्रह्म तस्मै श्रीगुरवे नमः। सर्वेभ्यो नमः, सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे। अस्माकं प्रवर्तमानविषये अस्ति तत्र रूपम् इति गुणः, तस्मिन् विषये या चर्चा आसीत् सा चर्चा तु समाप्ता अस्ति। तत्र वयं दृष्टवन्तः तत्र रूपस्य व्याप्यवृत्तित्वम् अस्ति न वा इति प्रश्ने तत्र अनेके विषयाः अन्तर्भूताः आसन्। नाम तत्र नव्यमतम् अस्ति तत्र रूपस्य अव्याप्यवृत्तित्वम् अस्ति इति, अपि तत्र प्राचीनानां मतम् अस्ति तत्र रूपस्य व्याप्यवृत्तित्वं, नाम यस्मिन् पदार्थे अस्ति रूपम् इति गुणः तस्मिन् पदार्थे सर्वत्र सर्वदेशे, एकस्मिन् देशे इति नास्ति किन्तु सर्वत्र वर्तते इति। किन्तु नवीनानां मतं भिन्नमस्ति, तेन तत्र चित्रम् इति सप्तमं रूपं प्राचीनानां मते यत् स्वीकृतम् अस्ति तत्तु नवीनानां मते अस्वीकृतम् अस्ति इति भेदः तयोः मतयोः मध्ये। इदानीं तत्र अग्रे सरामः। एतावत् तत्र रूपस्य लक्षणं वयं दृष्टवन्तः, रूपस्य षड्विधाः अथवा सप्तविधाः मतानुसारं भवति इति वयं दृष्टवन्तः। इदानीम् अग्रे सरामः तत्र रसादिलक्षणानि अपि तेषां विभागः च इति। अस्तु, तर्हि तत्र विमला भगिनी आरम्भं करोति वा?
महोदय नमस्ते।
नमस्ते भगिनि।
रसादिलक्षणानि विभागश्च रसनग्राह्यो गुणः रसः, स च मधुर अम्ल लवण कटुकषायतिक्तभेदात् षड्विधः, पृथिवी जलवृत्तिः, पृथिव्यां षड्विधः, जले मधुर इव मधुर एव घ्राणग्राह्यो गुणो गन्धः, स च द्विविधः सुरभिः असुरभिश्च, पृथिवीमात्रवृत्तिः, त्वगिन्द्रियमात्रग्राह्यो गुणः स्पर्शः, सः त्रिविधः शीतोष्ण अनुष्ण अशीतभेदात्, पृथिवीजलतेजौ वायुवृत्तिः, तेजो वायुवृत्तिः, तत्र शीतो जले, उष्णः तेजसि, अनुष्णशीत पृथिवी वायुवोः इति। अत्र खण्डशः पश्यामः, रसादिलक्षणस्य विषये उक्तमस्ति कति विधानि सन्ति इति, विभागाः इति। रसनग्रह इति जिह्वा रसना जिह्वा अस्ति, सो रसः यगुणः अस्ति ते सः रसनया ग्राह्यमस्ति।
ग्राह्यं पुनः एकवारं स्मारयतु, ग्राह्यम् अथवा ग्राह्यः गुणः नाम
तेन ज्ञायते इति।
हा, ग्राह्यः नाम तस्य
ज्ञानं भवति
भवति भवति इन्द्रियेण, तत्र ग्राह्यः अत्र इन्द्रियेण तस्य ग्रहणं
भवति, तस्य ज्ञानं भवति। अपि च रसन गुणः अस्ति स च षड्विधः अस्ति, मधुर अम्ल आम्ल मधुर आम्ल लवणकटु कषाय तिक्त इति षड्विधाः सन्ति।
मधुर आम्ल
लवण
लवण
कटु कषाय तिक्त
कषाय
तिक्त षड्विधाः सन्ति। अत्र पृथिवी जलवृत्तिः इत्युक्ते रसादिगुणः पृथिव्याम् अस्ति, रसः पृथिव्याम् अस्ति, जले अस्ति इति, वृत्तिः इत्युक्ते वर्तते पृथिव्याम् अपि च जले वर्तते, अन्यत्र न वर्तते, केवलं पृथिव्याम् अपि जले आकाशे तेजसि वायो न वर्तते। पृथिव्यामपि षड्विधाः सन्ति, ये सर्वे उक्ताः उपरि षड्विध षड्विधाः, ते सर्वे पृथिव्यां सन्ति, परन्तु जले मधुर एव अस्ति.
नाम जलस्य जले यः रसगुणः वर्तते सः मधुरः एव, मधुररस एव भवति जले.
जले पश्चात् गन्धस्य विषये उक्तमस्ति. गन्धः, गन्ध इति गुणः घ्राणेन ग्राह्यते, घ्राणेन ज्ञायते, घ्राणग्राह्यगुणः घ्राणेन ज्ञायते ग्राह्यते,
तस्य ग्रहणं भवति.
स च द्विविधः, सुरभिः असुरभिश्च इति. तदेव महोदय, सुरभिः अस्ति, सुरभिः नास्ति, नास्ति इत्युक्ते असुरभिः अस्ति
इति द्विविधः.
कुत्र अस्ति इत्युक्ते केवलं पृथिव्यां वर्तते, पृथिवी मात्र वर्तते.
एतत् वयं पूर्वमपि ज्ञातवन्तः खलु, तत्र पृथिव्याम् एव वर्तते गन्धः, यतोहि तत्र लक्षणम् एव तत्र
गन्धवत् पृथिवी इति. पश्चात् त्वगिन्द्रियमात्रगुण ग्राह्यगुणः स्पर्शः. तर्हि स्पर्श कीदृश इत्युक्ते केवलं त्वगिन्द्रियेण ग्रह्यते, तस्य ग्रहणं भवति स्पर्शः. वायुः अपि अस्ति, परन्तु एनिवे स स्पर्शः त्रिविधः अस्ति, शीत उष्ण अनुष्ण अनुष्णशीतभेदात्. शीत शीतस्पर्शः, उष्णस्पर्शः, अनुष्णशीत इति त्रिविधाः.
त्रिविधाः समीचीनं. शीतः,
उष्णः,
अनुष्णशीत,
अनुष्णशीतः, अनुष्ण अशीतः, अशीत इति अनुष्णाशीतः.
शीतः अस्ति, उष्णः अस्ति, अपि तृतीयः तु उष्णः अपि नास्ति, शीतः अपि
द्वयमपि नास्ति, द्वयमपि नास्ति. पृथिवी जलतेजो वायुवृत्तिः. तर्हि स्पर्श कुत्र अस्ति इति अत्र उल्लेखः अस्ति. पृथिव्यां जले तेजसि अपि च वायौ इति वर्तते इति अस्ति.
स्पर्शः वर्तते,
वर्तते. शीतस्पर्शः जले अस्ति, तत्र शीतो जले. उष्णस्पर्शः तेजसि अस्ति. यत् यस्पर्शः पृथिव्यां वायौ अस्ति, पृथिव्याम् अपि च वायौ अस्ति, तत् अनुष्णः अशीतः
इति. समीचीनं. नाम तत्र शीतस्पर्शः जले अस्ति, शीतस्पर्शः तेजसि अस्ति वा
नास्ति? उष्णस्पर्श एव अस्ति, तत्र
एव अस्ति तेजसि,
तेजसि
केवलं
शीतस्पर्श,
अन्यत्र शीतस्पर्श नास्ति,
नास्ति.
उष्णस्पर्श केवलं तेजसि अस्ति, अन्यत्र नास्ति. तथैव अनुष्ण
अशीत
पृथिव्यां
वायौ अपि अस्ति,
किन्तु जले अपि तेजसि अनुष्ण अशीतः न प्राप्यते, नास्ति तत्र. समीचीनं भगिनि,
धन्यवादः महोदय.
धन्यवादः भगिनि, समीचीनम् अस्ति. अस्तु अग्रे नूतनतया तत्र मृणालिनी भगिनी नमस्कारः, नरसिंह हेगडे महोदय नमस्कारः.
नमस्ते महोदय.
नमस्कारः. अस्तु इदानीम् अग्रे सरामः. तत्र एतावत् तत्र रसः इति गुणः, तदनन्तरं तत्र गन्धः इति गुणः, स्पर्शः इति गुणः, अपि तत्र तावदेव खलु. स्पर्शः, रसादिलक्षणानि नाम रस, गन्धः, स्पर्शः इति अपि पूर्वं रूपम् इति दृष्टवन्तः वयम्. अस्तु समीचीनम्. अस्तु अग्रे सरामः. तत्र यत्र यत्र ग्राह्यः इति पदम् अस्ति, अर्थः अस्ति तत्र तस्य ज्ञानं भवति. ग्राह्यः इन्द्रियेण, ग्राह्यः गृह्णाति, इन्द्रियं गृह्णाति नाम इन्द्रियं तस्य ज्ञानं जनयति, अथ प्रत्यक्षज्ञानम् इति. अस्तु इदानीम् अग्रे सरामः. योगेन्द्रमहोदय अग्रे पठति वा?
महोदय, रक्सलक्षणं प्राक् उक्तं, विभागः अपि सुज्ञेयः अत्र चित्ररस इति विभागः नास्ति अतः न किञ्चित् वक्तव्यम् अवशिष्यते पृथिवी जलवृत्तिः माधुर्यम् एव च जले अन्ये रसाः शुक्लरूप अतिरिक्तरूपवत् पृथिव्याम् एव इति स्थिति इति स्थितम् रसलक्षणं प्राग् उक्तम् अतः उपेतने भागे उक्तं विभागः अपि सुज्ञेयः विभागः नाम किं महोदय
तर्हि तत्र रस इति गुणस्य लक्षणं लक्षणवाक्यं किम् अस्ति
रसन् गायो गुणः रसः स च मधुर आम्ल
वाक्यं तु रसनग्राह्यः गुणः रसः तावदेव
तावत् अस्तु
नाम तत्र लक्षणवाक्यं केवलम् एतावत्येव रसनग्राह्यः गुणः रसः तत्र लक्षणम् इति उक्तं नाम किञ्चित् विवृणोतु लक्षणम् इत्युक्ते किं भवति पदार्थस्य लक्षणम् इत्युक्ते
लक्षणम् इत्युक्ते पदार्थस्य
नाम तत्र पृथिव्याः लक्षणं वयम् उक्तवन्तः गन्धः इति स्वीकरोतु गन्धवत्वम् इति अस्ति किन्तु गन्धः इति स्वीकरोतु तर्हि तत्र किम् आसीत् तत्र लक्षणं लक्ष्यम् अस्ति पृथ्वी इति तत्र स्थितिः तत्र
कथं पृथिवीः अस्ति इति ज्ञातुं कथं ज्ञास्यामः अतः यत्र गन्धः भवति सा पृथ्वी इति इतिरिक्ते यत्र कुत्रापि गन्धः अस्ति सा पृथिवी
तर्हि लक्ष्यं किमपि लक्ष्यम् इति स्वीकुर्मः तदा लक्षणं कुत्र कुत्र भवेत् लक्ष्ये एव भवेत् अन्यत्र न भवेत् अपि लक्ष्ये सर्वत्र भवेत् एकस्मिन् देशे न किन्तु लक्ष्ये सर्वत्र भवेत् खलु तर्हि इदानीम् अत्र लक्षणवाक्यं किं दीयते
रसस्य लक्षणवाक्यमस्ति रसन् ग्रायो गुणः रसः अतः यत्र कुत्रापि रसः भवति येन
तर्हि लक्ष्यं किम् अस्ति अत्र यस्य लक्षणवाक्यमस्ति कस्य लक्षणवाक्यमस्ति
गुणस्य
रस इति गुणः एव अस्माकं लक्ष्यं खलु लक्ष्यमस्ति रसः इति गुणः तर्हि रसे अत्र दल कति दलाः सन्ति कति दलानि सन्ति रस इति लक्षणवाक्ये
रस इति लक्षणवाक्ये दलः
नाम तत्र यथा तत्र वायोः लक्षणं किम् अस्ति
गन्धरहितवायुः
रहितम् इति समीचीनं महोदय रूपरहितत्वे सति
रूपरहितवायुः रूपगन्धरहितवायुः
स्पर्शवत्वं वायोः लक्षणं
लक्षणं
तत्र केवलं रूपरहितत्वम् इति वक्तुं शक्नुमः वा लक्षण वायोः लक्षणम्
न
केवलं स्पर्शवत्वम् इति वदामश्चेत् वायोः लक्षणं भवति वा
न
अत्र तत्र दोषः भवति खलु अतिव्याप्तिदोषः व्याप्तिदोषः एतत् सर्वं भवति खलु अत्र तथैव अत्र किं
तत्र तु एकः एव दलः अस्ति
इति वा तत्र केवलं गुणः रसः गुणः इत्युक्ते तत्र गुणः इति वदामश्चेत् केवलं रसः इति भवति वा न खलु
न रसन् येन
रसनग्राह्यः इति
भवति सः एव
इति एकं दलम् अस्ति अपि अन्यः दलम् अन्यद् दलम् अस्ति गुणः किमर्थं तत्र तत्र दलद्वयम् इति अङ्गीकरोति वा महोदय तत्र गुणः इति
दलद्वयमपि भवितुम् अर्हति
किं द्वयमपि केवलं गुणः भवति चेत् रसः इति एव
लक्ष्यं गुणः भवति गुणः भवति रसन् गाय भवति अपि तृतीयदलमपि भवति
तृतीयदलं किमस्ति
दलः अपि भवति
किमस्ति तृतीयदलम् अत्र तत् गुणः
रूपविषये प्रेरितवान् तत्र रूपम् अस्ति
हा हा किन्तु अत्र अत्र लक्षणवाक्ये किं किं दत्तमस्ति रसन ग्राह्यः
ग्रायो
ग्रायो नाम रसनग्राह्यः खलु तावदेव अपि गुणः अस्ति रसः इति गुणः अस्ति वा
रसः इति गुणः अस्ति
गुणः अस्ति गुणः अस्ति रसनेन्द्रियेण तत्र तस्य ज्ञानं भवति वा रस अस्ति इति
रसन् इन्द्रियेण ज्ञानं भवति
भवति खलु
अतः एकदलः रसः अस्ति द्वितीयदलं रसत्वं तृतीयदलं गुण
महोदय तत्र रसन इति भिन्नम् अस्ति रसः इति भिन्नम् अस्ति खलु महोदय
आम् रसः एव
तत्र रसनग्राह्यः इति तत्र पदच्छेदं करोतु महोदय पदविभागं करोतु किमस्ति
रसेन ग्राह्यगुणः
रसेन इति न रसन इति रसन महोदय
रसनग्राह्यः
रसन तत्र कति इन्द्रियाणि सन्ति अस्माकम्
एकः एव अस्ति
न नेत्र नेत्रमस्ति चक्षुः
पञ्च इन्द्रियाणि
हा चक्षुः
जिह्वा
घ्राणेन्द्रियं हा तत्र जिह्वा इति यत् वदामः तत्र साक्षात् तत्र इन्द्रियं किमस्ति
साक्षात् इन्द्रियमस्ति जिह्वा जिह्वा तु प्रायः
यत् द्रष्टुं शक्नुमः किन्तु महोदय तत्र एकवारं भवान् तत्र पठतु महोदय तत्र कुत्र अस्ति कोऽपि स्मरति वा तत्र इन्द्रियाणां विषये कुत्र अस्ति तत्र हा महोदय तत्र महोदय तत्र पश्यतु तत्र द्विचत्वारिंशत् पुटे 42
चत्वारिंशत् पुटे अस्तु
न द्विचत्वारिंशत् 42
आम् अस्तु
उपरितन शीतस्पर्शवत्यः आपः इति
आपः ताः द्विविधः
द्विविधाः आप इति जलं सर्वदा बहुवचने एव भवति अतः स्त्रीलिङ्गपदम् अतः ताः इति
नित्य अनित्याश्च नित्यः परमाणुरूपः अनित्यः कार्यरूपः पुनस्त्रिविधाः शरीरेन्द्रियविषयभेदात् शरीरं वरुणलोके
इत्युक्ते किमस्ति तत्र
कार्यरूपेन्द्रियविषयभेदात्
कार्यरूपजलस्य अनित्यजलस्य त्रैविध्यम् अस्ति खलु एकमस्ति शरीरजलं शरीरे अपि इन्द्रियपदार्थः विषय
शारीरम् इति अस्माकम् उदाहरणे शरीरम् इत्युक्ते जिह्वा, इन्द्रियम् इत्युक्ते रसन् ग्राह्य इन्द्रिय,
पठतु महोदय अग्रे शरीरं
वरुणलोके,
जलीय शरीरः शरीरं केवलं वरुणलोके अस्ति,
इन्द्रियं रसग्राहकं रसनं जिह्वाग्रवर्ति,
तत्र किमस्ति अस्य वाक्यस्य अर्थः कः?
य इन्द्रियमस्ति सः सा इन्द्रिय रसग्राहकमस्ति, रसन जिह्वाग्रवर्ति इति जिह्वाया
नाम जिह्वा इति साक्षात् इन्द्रियं नास्ति महोदय न्यायशास्त्रे. इन्द्रियम् इन्द्रियस्य साक्षात् ज्ञानम् इन्द्रियेण न भवति. तत्र अस्माकं चक्षुः अस्ति इति तत्र चक्षुषा ज्ञानं न उत्पद्यते ते तेषां मतम्. अतः तत्र
साधनमेव अस्ति.
रसनमिति इन्द्रियमस्ति, तत् कुत्र अस्ति? जिह्वाग्रवर्ति, जिह्वस्य समीपे, जिह्वायाः समीपे वर्तते. अतः जिह्वाग्रवर्ती अस्ति रसनम्. रसनम् इति इन्द्रियं यत् रसन रसग्राहकम् अस्ति, तद् इन्द्रियं कुत्र वर्तते? जिह्वायाः समीपे वर्तते. अतः अत्र किम् उक्तमस्ति? रसनग्राह्यः, रसनेन्द्रियेण ग्राह्यः अस्ति रसः इति गुणः. रसः इति पदार्थः रसनेन्द्रियेण ग्राह्यः अस्ति, गुणः अपि अस्ति इति एतावत् अस्ति महोदय तत्र. अस्तु, इदानीं तत्र अग्रे समीचीनम् अस्ति महोदय. अन्य कोऽपि वदेत् पुनः तदनन्तरं भवान् पुनः वदतु महोदय. तर्हि तत्र अग्रे तत्र उषा भगिनी तत्र किञ्चित् वदति वा तत्र दक्षिणवाक्ये रसनग्राह्यः गुणः रसः इति तत्र दलद्वयं वा एकमेव दलं वा दलत्रयं वा किं?
रसनग्राह्यः गुणः रसः इति लक्षणवाक्यं. रसनग्राह्यः इति एकं दलम् अपि च गुणः इति एकं दलं, दलद्वयम् अस्ति. रसनग्राह्यः एव उक्तं चेत् रसनग्राह्यः गुण अपि नीडेड् टुडे.
तस्य आवश्यकता,
अपि
नाम यदि केवलं गुणः इति वदामः, रसनग्राह्यः इति न वदामः, तत्र लक्षणवाक्ये लक्षणम् इति यदि किमपि वयं पठामः लक्षणवाक्यं, तर्हि अस्माकं मनसि किं भवेत्? तत्र दोषराहित्यम् अस्ति,
दोषराहित्यं
न वा इति अतिव्याप्ति अव्याप्ति
न भवेत् इति
न भवेत्. तर्हि रसः इति सः गुणः अस्ति, समीचीनम् अङ्गीकुर्मः खलु? रसः इति गुणः अस्ति, रसनग्राह्यः अपि अस्ति रसः. किन्तु गुणः इति केवलम् अस्ति चेत् तत्र कीदृश
गुणः? गुणः सो मेनि आफ् देम् आर् देर्. चतुर्विंशति
गुणः. गुणः इति वदामश्चेत् तत्र स्पर्शः अपि गुणः खलु? तत्र अतः तत्र रूपमपि
गुणः.
तत्र किं भवति? अतिव्याप्तिदोषः
भवति.
इदानीं केवलं रसनग्राह्यः इति वदामः, तर्हि तत्रापि किम् अतिव्याप्तिदोषः भवति वा?
रसनग्राह्यः एव उक्तः चेत्
तत्रापि भवेत्, नो चेत्
तत्रापि
यतोहि यदि वयं जलं पिबामः, तत्र जलस्य रसस्य ज्ञानं भवति खलु अस्माकम्?
आम् आं महोदय.
जलमपि अस्ति इति ज्ञानं भवति खलु?
सो जलं कृते अपि रसः अस्ति इत्यनेन
तर्हि तत्र रसनेन्द्रियेण जलस्य ज्ञानं भवति, लवणस्य ज्ञानं भवति खलु, मरीचिकायाः ज्ञानं भवति, तर्हि मरीचिका अपि लवणम् अपि जलम् एतत् सर्वं रसनग्राह्यः पदार्थाः खलु. अतः केवलं रसनग्राह्यः
इति
तत्र अतिव्याप्तिदोषः
अतिव्याप्तिदोषः भवति.
अतः एव
गुणः अपि
भवेत् गुणः अपि
भवेत्
इति अस्ति. अस्तु समीचीनम्. इदानीं तत्र विभागः अपि
सुज्ञेयः
सुज्ञेयः नाम सम्यक् रीत्या जानन्तव्यम्
अवगन्तव्यम्.
तत्र षड्विधाः इति उक्तं. तत्र किं किमस्ति?
मधुर आम्ल लवण कटु कषाय तिक्त इति षड्विधः.
षड्विधः अस्तु अग्रे.
अत्र चित्ररस इति विभागः नास्ति. अतः न किञ्चित् वक्तव्यम् विशेष वक्तव्यम् अवशिष्यते. पृथ्वी जलवृत्तिः
तत्र अस्य वाक्यस्य अर्थः
माधुर्यमेव च जले. पृथ्वी जलवृत्तिः पृथिव्यां
उपरितनवाक्यम्
अत्र चित्ररस इति विभागः नास्ति. पूर्वं वयं पठितवन्तः रूपस्य कृते चित्ररूपम् इति.
चित्ररूपम् इति मतभेदः आसीत्
अत्र चित्ररसम् इति विभागः नास्ति. अतः न किञ्चित् वक्तव्यम् इति
सर्वम् उक्तमेव. नाम विभागषड्विधाः प्राचीनानां मतं नवीनानां मतं समानम् अत्र.
पृथ्वी जलवृत्तिः इत्यनेन
नाम एकमेकं लक्षणवाक्ये किं किम् अस्ति तस्य विवरणं दीयते.
पृथ्वी जलवृत्तिः इति
कः अस्ति? पृथ्वी जलवृत्तिः कः
इति
पृथ्वी जलवृत्तिः इत्युक्ते कः?
पृथ्वी जलवृत्तिः इत्युक्ते
अत्र रसः विशेषणं.
रसः
पृथ्वी जलवृत्तिः अस्ति नाम विशेषणं. उत्तमः
रसः पृथ्वी जलवृत्तिः.
पृथ्वी जलवृत्तिः रसः इत्युक्ते किमस्ति? पृथ्वी जलवृत्तिः इत्युक्ते रसं कुत्र कुत्र वर्तते
इति.
कुत्र कुत्र वर्तते?
पृथिव्यां
वर्तते
अपि च जलम् अपि
जले अपि वर्तते. तस्य वृत्तिः पृथिव्यां भवति जले अपि भवति अन्यत्र नास्ति. रसम् इति केवलं पृथिव्यां
जले अपि अस्ति
तावदेव. अस्तु
जले माधुर्यमेव च जले माधुर्यम् इति गुणः एव इति रसः एव.
रसस्य षड्विधाः सन्ति किन्तु तेषु एकमेव नाम माधुर्यम् इति एव जले वर्तते. अन्ये जले न वर्तते. तिक्तम् इति जले न वर्तते. लवणम् इति जले न वर्तते.
लवण नास्ति. आम्ल नास्ति. कटु नास्ति. कषाय नास्ति. तिक्त नास्ति.
केवलं माधुर्यमेव मधुररसमेव रसः एव जले
जले वर्तते. अन्ये रसाः शुक्लरूपाति शुक्लरूप अतिरिक्तरूपवत् पृथिव्याम् एव इति स्थितम्. अन्ये रसाः शुक्लरूप अतिरिक्तरूपवत् वयं रूपस्य कृते दृष्टवन्तः लैक् शुक्ल
रूपस्य विषये हा रूपस्य विषये वयं गतवर्गे किं पठितवन्तः तत्र एकवारम् अत्र एव
तेजसी विद्यमानं शुक्लरूपम् अन्यान् प्रकाशयति इति तत् भास्वरं
भास्वरशुक्लरूपं
शुक्लम् इति उच्यते. पृथिवी अपि च जले जलयोः तु शुक्लरूपं न अन्यत् अन्यान् न प्रकाशयति इत्यनेन तत् अभास्वरम् इति वयं पठितवन्तः. अत्र शुक्लरूप
भगिनि तत्र अतः आरभ्य एकवारं पठतु तत्र पृथिव्यादि
पृथिव्यादित्रिकवृत्तिरूपं पृथिव्यादित्रिकवृत्तिरूपं तत्र पृथिवी जलं तेजसि पृथ्वी जले तेजसि
वर्तते रूपं
रूपं तत्र शुक्लरूपमेव त्रिषु वर्तते शुक्लरूपमेव त्रिषु वर्तते
पृथिव्यां
जले अपि च तेजसि शुक्लरूपमेव
शुक्लरूपमिति भवति
अन्यानि तु पृथिव्याम् एव
अन्यानि पृथिव्याम् एव अपि तेजसि रूपमस्ति तस्य नाम किम् अस्ति
शुक्लरूप
भास्वरशुक्लरूपं जले यत् रूपमस्ति तस्य नाम किम्
अभास्वरशुक्लरूपम्
अभास्वरशुक्लरूपं तर्हि तेजसि भास्वरशुक्लरूपं
जले
अभास्वरशुक्लरूपं शुक्लरूपम् अपि तत्र शुक्लरूपं विहाय अन्यरूपं पृथिव्यां न वर्तते क्षम्यतां तत्र तेजसि न वर्तते जले अपि न
जले अपि न वर्तते पृथिव्यामेव वर्तते
पृथिव्यामेव वर्तते इदानीं तत्र इदानीम् अन्यरसः माधुर्यम् एव स जले इति अस्ति
माधुर्यं जले एव वर्तते
जले वर्तते जले केवलं माधुर्यमेव अस्ति अन्यरसः
न वर्तते
इदानीम् अन्यरसाः
अन्यरसाः शुक्लरूप अतिरिक्तरूपवत् शुक्लरूप अतिरिक्तरूपवत् पृथिव्याम् एव इति स्थितम्
तर्हि अर्थः कः
शुक्लरूपं विहाय यत् रूपं वयं पृथिव्याम् अस्ति इति रूपाणि कृते दृष्टवन्तः तद्वत् एव अन्ये रसाः माधुर्यं विहाय अन्ये रसाः पृथिव्याम् एव तिष्ठति इति
उत्तमं भगिनि तदेव नाम शुक्लरूप अतिरिक्तरूपं विहाय अन्यरूपवत् रूपवत् नाम अन्यरूपवत् तत्र वत् इति तत्र मतुप् नास्ति नाम तत्र गन्धवत् गन्धवती इति रूपम् इव अतिरिक्तरूपम् इव अन्यरसाः अपि केवलं पृथिव्यामेव सन्ति तत्र जले न सन्ति अन्यत्र तु न सन्ति एव अतः शुक्लरूपविहाय अन्यानि रूपाणि यथा पृथिव्यां भवन्ति तथैव माधुर्यं विहाय अन्यरसाः
पृथिव्यामेव
भवन्ति इति अस्ति समीचीनं भगिनि अस्तु समीचीनं
धन्यवादः
समीचीनं भगिनि धन्यवादः अस्तु इदानीम् अग्रे तर्हि तत्र नीता भगिनी अग्रे पठति वा
गन्धः तु पृथिवीलक्षणम् इति निरूपित एव अतः तस्य पृथ्वीमात्रवृत्तित्वं लक्षणम् अपि ग्राह्यत्वघटितं रूपनिरूपणावसरे निरूपितम् एव विभागस्य सुरभिः असुरभिः इति स्पर्शलक्षणं तु मात्रपदघटितं रूपलक्षणवत् अतः तत्र त्रीणि दलानि तेषां प्रयोजनं चित्रद्वारा प्रदर्शनप्रकारः इति सर्वं निरूपितम् शीतस्पर्शः उष्णस्पर्शः शीतोष्णस्पर्शः इति तस्य त्रैविध्यं प्रसिद्धम्
भगिनि तर्हि तत्र प्रायशः तत्र स्पर्शलक्षणम् एतावत् पठतु भगिनि तत्र किञ्चित्
गन्धः तु पृथ्वीलक्षणम् इति निरूपित एव तद् गन्धवती पृथ्वी इति लक्षणम् अस्माभिः पठितवन्तः
कस्य लक्षणम् इति निरूपितवन्तः
गन्धः तु पृथ्वीलक्षणं पृथिव्याः लक्षणं गन्धवती पृथ्वी इति
नाम पृथिव्याः लक्षणं गन्धवत्वम् इति वयं पूर्वमेव निरूपितवन्तः तर्हि तत्र गन्धः पृथिव्याः लक्षणम् इति भवति इति कृत्वा तत्र लक्षणम् अपि लक्ष्यं तत्र लक्षणं कुत्र कुत्र भवेत्
लक्षणं लक्ष्ये भवेत् लक्ष्ये सर्वत्र भवेत् अलक्ष्ये
न भवेत् तर्हि तत्र गन्धस्य वृत्तित्वं नाम गन्धः तत्र पृथ्वीं विहाय अन्यत्र कुत्रापि भवति वा
न पृथ्वीमात्र
अतः एव तस्य नाम गन्धस्य पृथ्वीमात्र
वृत्तित्वमस्ति पृथिव्याम् एव वर्तते
न वर्तते अतः तत्र लक्षणम् इति निरूपितवन्तः इति कृत्वा वयं जानीमः पृथिवीं विहाय अन्यत्र न वर्तते पृथ्वीमात्र वृत्तित्वमस्ति गन्धस्य अग्रे
लक्षणमपि ग्राह्यत्वघटितं रूपनिरूपण अवसरे निरूपितम् एव ग्राह्य इन्द्रियैः ग्राह्य इन्द्रियेण ज्ञायते इति इन्द्रियैः ज्ञायते तत् ग्राह्य इति अस्ति
अत्र लक्षणवाक्यं साक्षात् लक्षणवाक्यं किमस्ति अत्र गन्धस्य
गन्ध अत्र गन्धविषये दत्तमस्ति घ्राणग्राह्यगुणः गन्धः इति गन्धस्य वाक्यमस्ति
तर्हि तत्र कति दलानि सन्ति तत्र
अत्र दलद्वयं वर्तते तत्र गुणः गन्धः इति गुणः तत्र गुणः इति गुणत्वं गन्धस्य लक्षणम् अस्ति तत्र अतिव्याप्तिः न भवेत् अतः तत्र आहत्य तत्र चतुर्विंशतिगुणाः सन्ति तत्र
अतः गुणत्वं तत्र
गुणत्वम् इति
तत्र
गन्धस्य लक्षणं
गुणः गन्धः तत्र किं भवति गुणः इति विशेषणं भवति नाम यतः यथा तत्र उत्तमः बालकः इति वदामः अथवा उन्नतः वृक्षः इति वदामः उन्नतः इति विशेषणवाचकपदं भवति साक्षात् विशेषणं किम् अस्ति औन्नत्यम् गुणत्वं गुणत्वम् इति साक्षात् गन्धे अस्ति इति कृत्वा गन्धः गुणः इति गुणत्वं गुणत्वं गन्धं विहाय अन्यत्र भवति वा
गुणत्वं गन्धं विहाय अन्यत्र अपि
अस्ति
अस्ति चतुर्विंशतिगुणाः सन्ति
अतः गुणत्वं तेषु अपि वर्तते इति कृत्वा केवलं गुणः इति वदामश्चेत् गुण इति दलं स्वीकुर्मश्चेत् अतिव्याप्तिदोषः
अतिव्याप्ति भवेत्
घ्राणग्राह्यः इति तत्र घ्राणग्राह्यत्वं गन्धे वर्तते वा नाम गन्धः घ्राणेन्द्रियेण गृह्यते
घ्राणग्राह्यत्वं गन्धे वर्तते
वर्तते तर्हि तत्र घ्राणग्राह्यत्वम् अन्यत्र वर्तते वा
प्राणग्राह्यत्वं
यथा रसनग्राह्यत्वं रसे अस्ति किन्तु अन्यत्र अपि अस्ति वा रसनग्राह्यत्वं
रसनग्राह्यत्वम् अन्यत्र अपि केवलं रसनग्राह्यत्वम् इति वदामः चेत् तत् अन्यत्र अपि वर्तते
कुत्र रसनग्राह्यत्वं रसे वर्तते यतोहि रसः इति रसनेन्द्रियेण दृश्यते रसः किन्तु केवलं रसनग्राह्यः इति वदामः रसनग्राह्यत्वं तत्र जलं पिबामः अथवा तत्र लवणं खादामः अथवा तत्र मरीचिकां खादामः तर्हि तत्र मरीचिका इति तस्य ज्ञानम् उत्पद्यते वा
उत्पद्यते
उत्पद्यते केन इन्द्रियेण
रसनेन्द्रियेण
तत् किन्तु मरीचिका तु गुणः नास्ति खलु अतः रसनग्राह्य इत्युक्ते नाम रसनेन्द्रियेण यस्य ज्ञानं भवति सः पदार्थः गुणः एव इति नास्ति पृथिवीपदार्थः अपि भवितुम् अर्हति यथा लवणम् अथवा मरीचिका अथवा जलम् एतत् सर्वं भवितुम् अर्हति खलु नाम तत्र रसं यस्मिन् पदार्थे वर्तते यदा रसस्य ज्ञानं भवति तदा पदार्थस्य अपि किञ्चित् ज्ञानं भवति खलु तस्य आश्रयस्य रसस्य आश्रयस्य अपि ज्ञानं भवति अतः आश्रयः अपि तत्र रसनग्राह्यः भवति इदानीं तत्र घ्राणग्राह्यः गन्धः
घ्राणग्राह्य केवलं तथैव भवति
तथैव गन्धः गन्धः कस्मिन् पार्थिवपदार्थे भवति चेत् यदा गन्धस्य ज्ञानं भवति तथा तत्र पार्थिवपदार्थस्य अपि घ्राणेन्द्रियेण भवति इति कृत्वा तत्र केवलं घ्राणग्राह्यः इति वदामश्चेत् अतिव्याप्तिः गुणः इति वदामश्चेत् अतिव्याप्तिः अतः घ्राणग्राह्यः गुणः इति भवति चेत् अतिव्याप्तिदोषः नास्ति तादृश गन्धः अस्ति तर्हि तत्र ग्राह्यः इति ग्राह्यत्वघटितं लक्षणं तत्र लक्षणे ग्राह्यत्वम् अस्ति इति कृत्वा लक्षणं कीदृशमस्ति लक्षणमपि ग्राह्यत्वघटितं लक्षणम् अस्ति खलु अत्र तथैव ग्राह्यत्वघटितलक्षणं रूपं रूपे अपि तत्र रूपस्य लक्षणवाक्यं तत्र किम् अस्ति चक्षुर्मात्रग्राह्यः गुणः रूपम् इति आसीत् तत्रापि ग्राह्यत्वम् आसीत् खलु तर्हि रूपम् इति गुणस्य लक्षणे अपि ग्राह्यमासीत् तर्हि रूपलक्षणवाक्यं ग्राह्यत्वघटितं वाक्यम् आसीत् अतः ग्राह्यत्वं तस्मिन् एव समये रूपनिरूपण अवसरे
निरूपितं
तत्र ग्राह्यत्वं यत् तादृशं ग्राह्यत्वं घटितं लक्षणं यदा भवति तस्य अर्थः कः इति वयं पूर्वमेव ज्ञातवन्तः निरूपितवन्तः पूर्वमेव अग्रे
अनन्तरं विभागस्य सुरभिः असुरभिः इति तत्र यत् गन्धः इति गुणः घ्राणग्राह्य इति अस्ति सः द्विविधः अस्ति तत् सुरभिः असुरभिः इति विभागद्वयं
सुरभिः सुरभिगन्धः असुरभिः गन्धः इति भवति अस्तु
स्पर्शलक्षणं तु मात्रपदघटितं तत्र स्पर्शलक्षणं यत् अस्ति त्वगेन्द्रियमात्रग्राह्यगुणः स्पर्श तत्र अपि मात्रपदं तत्र अपि इति न तत्र मात्रपदम् इति अस्ति रूपलक्षणवत्
यथा
रूपलक्षण वयं पश्यामः तत् चक्षु इन्द्रिये मात्रगुणः इति रूपं तत्र मात्र चक्षु इन्द्रियैः एव ग्राह्यते, अन्ये इन्द्रियेण अन्यैः इन्द्रियैः न ग्राह्यते। तथैव अत्र मात्र इति पदमस्ति, त्वक् इन्द्रियैः एव ग्राह्यते स्पर्श इति गुणः, त्वक् इन्द्रियैः एव ग्राह्यते, तत्र दलत्रयम् इति।
उत्तमं भगिनि, समीचीनं। नाम त्वगिन्द्रियग्राह्यत्वं, त्वगिन्द्रियभिन्न त्वग् भिन्न इन्द्रियैः अग्राह्यत्वम् अपि गुणत्वं, इति दलत्रयम् अस्ति। समीचीनं भगिनि, अस्ति समीचीनं भगिनि, तावदेव अस्तु, तावदेव तत्र रूपलक्षणवत्, यथा रूपलक्षणम् आसीत् तथैव अत्रापि स्पर्शलक्षणं तादृशम् अस्ति। समीचीनं भगिनि, धन्यवादः। अस्तु अग्रे तत्र नरसिंहगिरि महोदय अग्रे पठति वा?
आमाम्। अतः तत्र त्रीणि दलानि, तेषां प्रयोजनं चित्रद्वारा प्रदर्शनकारः इति सर्वं निरूपितं, शीतस्पर्शः उष्णस्पर्शः शीतोष्णस्पर्शः इति तस्य वैविध्यं प्रसिद्धम्। आदिमः जलमावृत्तिः, अतः जललक्षणम् इति वर्ण्यते। द्वितीयः उष्णस्पर्शः तेजोमातवृत्ति, त्वात् तेजः लक्षणं भवति। अनुष्णाशीतस्पर्शस्तु पृथिव्यां वायौ च भवति, तमादयः च वायुलक्षणं रूपरहितस्पर्शवान् वायुः इति प्राक् आवेदिष्व अवेदिष्व अत्र अतः तत्र त्रीणि दलानि तत्र स्पर्श वायुलक्षणे रूपरहितस्पर्शवान् अतः तत्र त्रीणि दलानि एषा प्रयोजनं चित्रद्वारा प्रश्नकार इति सर्वं निरूपितं, शीतस्पर्शः उष्णस्पर्शः शीतोष्णस्पर्शः इति तस्य त्रैविध्यं प्रसिद्धं। स्पर्शे तत्र त्रीणि वैविध्यानि सन्ति, शीतस्पर्शः अस्ति यत् जलमध्ये भवति, तत्र उष्णस्पर्शः अस्ति तत् तेजमध्ये भवति, अनन्तरं शीतोष्णस्पर्शः तत् पृथिव्यां भवति।
एकमेकं महोदय तत्र अस्तु, तत्र सोपानेन गच्छामः, अतः तत्र त्रीणि दलानि, तत्र लक्षणवाक्यस्य त्रीणि दलानि, तेषां प्रयोजनं चित्रद्वारा प्रदर्शनप्रकारः इति सर्वं निरूपितं। तत्र वयं तत्र दलसार्थक्यम् इति पूर्वं कृतवन्तः, यथा तत्र रूपलक्षणविषये वयं कृतवन्तः, तथैव अत्रापि तत्र कर्तुं शक्यते, अपि तत्र प्रायशः तत्र सर्वं निरूपितम् इति, तत्र प्रदर्शनप्रकारः चित्रद्वारा प्रदर्शनप्रकारः इति सर्वं निरूपितं, नाम तत्र दलस्य प्रयोजनं कथं करणीयम् इति, नाम तत्र तेषाम् आवश्यकता, तत्र दलानाम् आवश्यकता कथं ज्ञास्यामः इति पूर्वं निरूपितमेव। अस्तु अग्रे, शीतस्पर्शः उष्णस्पर्शः शीत उष्णस्पर्शः इति तस्य त्रैविध्यं प्रसिद्धम्। इदानीम् आदिमः, आदिमः इत्युक्ते शीतस्पर्शः जलमात्रवृत्तिः, केवलं
जले जले वर्तते,
जले एव वर्तते, समीचीनम्। अस्तु अतः जललक्षणम् इति वर्ण्यते, वयं दृष्टवन्तः तत्र योगेन्द्रमहोदी अपि यथा तत्र पठितवान् तत्र तत्र चतुर्विंश चत्वारिंशत् द्विचत्वारिंशत् पुटे तत्र शीतस्पर्शवत्यः आपः इति, तर्हि तत्र जलस्य लक्षणे तत्र शीतस्पर्शः इति दल इति दलम् अस्ति, अतः शीतस्पर्शवत्वम् एव तत्र जलस्य लक्षणम्, अतः तत्र जललक्षणम् इति वर्ण्यते, यतोहि शीतस्पर्शः केवलं जले एव वर्तते, जले सर्वत्र वर्तते, अतः इति कृत्वा तत्र दोषराहित्यं लक्षणदोषराहित्यम् अस्ति इति कृत्वा लक्षणम् इति वर्ण्यते. अस्तु अग्रे
अग्रे द्वितीयः उष्णस्पर्शः तेजोमात्रवृत्तित्वात् तेजस्य लक्षणं, यथा जलस्य लक्षणं शीतस्पर्शः, उष्णस्य लक्षणं तेजस्
तत्र उष्ण तेजसः लक्षणम् उष्ण उष्णस्य उष्णस्पर्श तेजः, उष्णस्पर्श तेजः इति तद् तेज तेजसः लक्षणे भवति, तेजसः लक्षणं तेजसः इति षष्टि तेजसः लक्षणं भवति. अस्तु तर्हि तत्र शीतस्पर्शः केवलं जले वर्तते, उष्णस्पर्शः केवलं तेजसि भवति, अतः अन्यत्र स्पर्शः भवति चेत् सः कीदृशः भवति? उष्णः न भवेत् खलु, उष्णः न भवेत् यतोहि शीतः अपि न भवेत्, अतः स्पर्शः अन्यत्र भवति चेत् तत्र जलम् अपि तत्र तेजः विहाय अन्यत्र भवति चेत् तत्र अनुष्ण अशीतस्पर्शः एव भवेत्. तत् कुत्र कुत्र वर्तते?
पृथिव्यानन्तरं वायोः च भवति.
हा पृथिव्यामपि भवति, वायोः अपि भवति, अनुष्ण अशीतस्पर्शः
अशीतमादाय च वायुलक्षणं रूपरहितस्पर्शवान् वायुः इति प्राक् वेदिष्म. वायुलक्षणं वयं दृष्टवन्तः तत्र रूपरहितस्पर्शवान् तत्र रूपरहित इत्युक्ते केवलं रूपरहित इति वदामः चेत् तत्र तर्हि तत्र आकाशादि अपि रूपरहित अस्ति, अतः तत् समीचीनं नास्ति. केवलं स्पर्शवान् इति वदामः चेत् पृथ्वे जले स्पर्श अस्ति, तदपि समीचीनं नास्ति, अतः रूपस्पर्शवान् इति वदामः चेत् समीचीनं लक्षणं भवति इति.
समीचीनं, तत्र अतिव्याप्तिदोषः न भवति. समीचीनं समीचीनं. अवेदिष्म इत्युक्ते नाम पूर्वमेव ज्ञातवन्तः, मिद् इति धातोः तत्र लुङ्लकारः अवेदि अवेदिष्म इति. अस्तु समीचीनं महोदय, धन्यवादः. उत्तममस्ति, अग्रे सरामः. तर्हि तत्र अग्रे चन्द्रमती भगिनी अग्रे पठितुम् इच्छति वा?
महोदय रूपादिचतुष्टयं पृथ्व्यां पाकजल पाकजमनित्यं
पाकजम् अनित्यं च
पाकजम् अनित्यं च अन्यत्र अन्यत्र अपाकजं नित्यम् अनित्यं च नित्यगतं नित्यम् अनित्यगत अनित्यम्
अनित्यगतम् अनित्यम्
रूपादिचतुष्टयं
रूपादिचतुष्टयम् इत्युक्ते रूपं तत्र रूपं चतुष्टयम् इति अस्ति, तर्हि रूपं रसः गन्धः अपि चतुष्टयमस्ति, अन्यः कः? स्पर्शः स्पर्शः तत्र स्पर्शः इति अस्ति खलु तत्र तत्र स्पर्शः तत्र स्पर्शः अतः चतुष्टयं तर्हि अतः तर्हि रूपादि
चतुष्टयं पृथ्व्यां पागज पागजम् अनित्यं च
तत्र अग्रे अग्रे तत्र दीयते भगिनि तर्हि तत्र अग्रे पठतु तर्हि
चतुर्णां विशेषमाह रूपादिचतुष्टय मिथ्यादि इत्यादिना पृथ्व्यां पाकजं पाकः तेजः सपयोगः तेन जायते आदपे स्थापिते नारिकेलशकले पूर्वरूपादि नाशः अन्येषां चोत्पत्तिः अन्येषां च उत्पत्तिः तेजः संयोगादेव अन्यत्र जलादौ तत् अपाकजं न पाकेन जायते
तावत्पर्यन्तं भगिनि अत्र अस्तु
चतुर्णां विशेषमाह रूपादिचतुष्टय इत्यादीना रूपरसगन्धस्पर्श एव चतुष्टयं चतुर्णां विशेषं किं रूपादिचतुष्टयम् इत्यादि
प्रथमतया तत्र रूपादिचतुष्टयं रूपं रसः गन्धः स्पर्शः एतत् सर्वं पृथिव्यां वर्तते वा
पृथिव्यां वर्तते
रूपं पृथिव्यां वर्तते रसः पृथिव्यां वर्तते गन्धः पृथिव्यां वर्तते स्पर्शः अपि वर्तते वर्तते अस्तु इदानीं तेषां विशेषं चतुर्णां विशेषं किम् अस्ति तत्र पृथिव्यां पाकजम् अनित्यं च पाकजम् इति एकम् अस्ति अनित्यम् इति अन्यत् अस्ति अनित्यम् इति जानीमः अनित्यं नाम
नित्यं नास्ति
नित्यं नास्ति तस्य नाशः भवति इदानीं पृथिव्यां पाकजम्
पाकः तेजः संयोगः तेन जायते
पाकः इत्युक्ते किमस्ति संयोगः नाम यदि पचामः तत्र पाकं भवति खलु तेजसः संयोगः भवति खलु तेजसः संयोगः भवति खलु तेजसंयोगः एव पाकः पाकः इत्युक्ते किं तेज
संयोगः
संयोगः तेजसंयोगेन किमपि भवति
तेजसंयोगेन जायते
पाकजं नाम तेजसंयोगेन भवति तेजसंयोगः एव कारणं फलं तत्र कार्यं फलमस्ति पाकजं समीचीनं तेन जायते अस्तु इदानीम् उदाहरणं
स्थापिते नारिकेल शकले पूर्वरूपादि नाशः आपदे तेजे
नाम
तेजसि नारिकेलं स्थापयति चेत् तस्य रूप परिवर्तनं पूर्वरूप नाशः भवति रूपपरिवर्तनं भवति
अस्तु तत्र पूर्वरूपादिनाशः तर्हि तत्र कस्य कस्य नाशः भवति
रूपस्य वर्ण
अपि
पाकं भवति
न किन्तु तत्र पूर्वम् उक्तमासीत् किं चतुर्णाम् इति उक्तं खलु तर्हि तत्र चतुर्णां
रसस्य गन्धस्य स्पर्शस्य
सर्वं परिवर्तनं भवति खलु सर्वस्य परिवर्तनं भवति
तेजः कारणेन
तेजसः कारणेन तत्र नारिकेलशकले नाम भागे तस्य एकं भागः खण्डः स्वीकुर्मः चेत् तत्र यदि नारिकेलखण्डं तत्र आतपे नाम अग्नौ स्थापयामः तर्हि तत्र तेजसि स्थापयामः पूर्वं पूर्वरूपादिनाशः पूर्वरूपं यदस्ति पूर्वं रूपं यदस्ति पूर्वं रसः यः अस्ति पूर्वं गन्धः यः अस्ति पूर्वं स्पर्शः यः अस्ति तेषां नाशः भवति खलु अग्निना अग्निसंयोगेन नाशः भवति खलु भगिनि
अस्तु
हा अपि अपि किं अन्येषां
च उत्पत्तिः तेजः संयोगादेव
हा नाम अन्येषाम् इत्युक्ते
रसगन्धस्पर्श
नूतन नाम नूतनरूपं भवति खलु रसः भवति नूतनगन्धः भवति नूतनस्पर्शः भवति खलु नारिकेले
उत्पत्तिः ते अग्निकारणेन एव तेजः कारणेन एव
संयोगादेव भवति अतः तत्र यत् रूपं चतुष्टयं रूपादिचतुष्टयं पृथ्व्यां यदस्ति तत् पाकजम् अनित्यं भवति तत्र यदि तत्र तेषां तत्र नाशः भवितुं अर्हति नाम तत्र पाकेन नश्यति अपि
पाकेन
उत्पत्तिः पाकेन उत्पत्तिः अपि भवति पाकेन नाशः अपि भवति खलु
पूर्वस्य नाशं नूतनस्य उत्पत्तिः अपि
उत्पत्तिः भवति अतः तत्र पाकजम् अपि अनित्यं
पाकजम् इति वदति
पाकजम् अपि अनित्यमपि अस्ति इदानीम् अग्रे किमस्ति
वक्ष्यमाण अन्यत्र अन्यत्र जलादौ तत् अपाकजम् जले वायु तेज पृथ्व्या किमस्ति तद् अपाकजम् अस्ति
अपाकजम् इति
तेजसि एव पाकजम् अस्ति
पाकेन जायते यतोहि तद् न पाकेन जायते तावदेव नाम तत्र पृथिव्यां यदस्ति तत् पाकजम् अनित्यम् अन्यत्र तत्र अपाकजम् इति भवति अस्तु समीचीनं भगिनि धन्यवादः अस्तु अग्रे तत्र मृणालिनी भगिनि अग्रे पठति वा
वक्ष्यमाणप्रकारेण कारणगुणेभ्यः जायते वक्ष्यमाणप्रकारेण कारणगुणेभ्यः जायते तत्रैव जलादौ नित्ये परमाणौ रूपादि नित्यम् अनित्ये द्व्यनुकादौ अनित्यम् अत्र च जलादौ रूपादिचतुष्टय चतुष्टया सम्भवेन यथा सम्भवेन ग्राह्यं विस्तरः अन्यत्र
तर्हि प्रथमवाक्यम् इदानीं त्यजतु द्वितीयवाक्यात् आरभ्य किञ्चित् पठतु तत्रैव
तत्रैव जलादौ नित्ये परमाणौ रूपादि नित्यं तत्रैव अत्र
तत्र एव
तत्रैव अत्र किं निर्दिश्यं
तत्र जलादौ जलादौ नित्ये परमाणौ तत्र जलादौ नित्ये परमाणौ इति तत्र किञ्चित् वदतु किमस्ति
अत्र जलादौ इति पदेन किं किं ग्राह्यं
नाम एतावत् तत्र वयं किं किम् उक्तवन्तः तत्र केषां तत्र चर्चा जाता एतावत् रूपरसगन्धस्पर्शः अतः तत्र जलादौ नाम एतावत् पृथिव्याः चर्चा जाता खलु किन्तु तत्र रसः गन्धः स्पर्शः तत्र स्पर्शः अन्यत्र कुत्र अस्ति रसः कुत्र वर्तते रूपं कुत्र वर्तते जले वर्तते अपि
तेजसि वर्तते
तेजसि वायु
वायु
अतः तेषां नाम तत्र जलादौ नाम जलं तेजः वायुः
तत्रैव जलादौ नित्ये परमाणौ
तत्र नित्ये परमाणौ इति तत्र किमस्ति
नित्यपरमाणुम् अत्र अर्थात्
विभक्ति का तत्र
सप्तमी
प्रथमाविभक्तिरूपं किम् अस्ति
नित्यं परमाणुः
तर्हि नित्यः परमाणुः परमाणुः इति पुल्लिङ्गपदं नित्यः परमाणुः इति विशेषणविशेष्यभावः तस्य सप्तमी नित्ये परमाणौ तत्र जलस्य परमाणुः अस्ति इति चिन्तयतु तर्हि तत्र तस्मिन् परमाणौ तत्र रूपम् अस्ति वा जले रूपम् अस्ति खलु तर्हि परमाणौ जलीयपरमाणौ अपि रूपं वर्तते
जले रूपम् अस्ति वा
जले रूपम् अस्ति वा वयं किम् उक्तवन्तः तत्र पूर्वं किम् आसीत् गतवर्गे वयं किं पठितवन्तः तत्र रूपस्य कति विधाः सन्ति
विविधाः
रूपस्य रूपस्य हा जले कीदृशरूपम् अस्ति
जले तु शुक्लरूपं न प्रकाशयति इति अभास्वरं शुक्लरूपं
हा अभास्वरशुक्लरूपं जले वर्तते जले अभास्वरशुक्लरूपम् अस्ति तर्हि जलपरमाणौ अपि अभास्वरशुक्लरूपम् अस्ति तत्र विमलभगिनी प्रश्नः
प्रश्न महोदय प्रश्न अत्र अस्ति जलादौ इति जल योगः अन्यत् किमपि वस्तु वा परमाणु
नाम तत्र जलपरमाणुः वा अथवा तत्र वायोः परमाणुः वा अथवा तेजसः परमाणुः वा
इति द्विवचनं परमाणोः कृते कृतमस्ति परमाणौ इति द्विवचनमस्ति
अतः एव पृष्टवान् तत्र विभक्तिका सप्तमी भगिनि
ओ ओ ओ
नित्ये परमाणौ नाम नित्यः परमाणुः प्रथमविभक्तिरूपं तस्य सप्तमी नित्ये परमाणौ
अस्तु अस्तु महोदय
अतः सप्तमी अतः सप्तमी तत्र जलीयपरमाणु वा तत्र अथवा तत्र तेजसः परमाणुः वा अथवा तत्र वायोः परमाणुः वा तस्मिन् गुणः यः गुणः वर्तते नाम रूपम् इति गुणः वा रसः इति गुणः वा गन्धः इति गुणः वा स्पर्शः इति गुणः वा सः गुणः किम् उक्तमस्ति मृणालिनी भगिनि सः गुणः किमुक्तमस्ति नित्यमस्ति नाम परमाणुः नित्यपदार्थः अस्ति तस्मिन् विद्यमानः गुणः अपि नित्यमस्ति तस्य नाशः न भवति नाम जले जलीय जले अभास्वरशुक्लरूपं यद् तत्र नाम सरित् मध्ये जलमस्ति तत्र जलस्य अभास्वरशुक्लरूपं तस्य नाशः भवितुमर्हति किन्तु परमाणु जलपरमाणुः यः अस्ति तस्मिन् विद्यमानः अभास्वरशुक्लरूपं तस्य नाशः न भवति नित्यमस्ति सः गुणः नाम परमाणुः नित्यपदार्थाः सन्ति इति कृत्वा रूपम् इत्यादि गुणः अपि ते अपि नित्याः. अग्रे
अनित्ये द्व्यनुकादौ अनित्यं.
हा
तर्हि अस्मिन् एव जलादौ अर्थात् जलपरमाणु तेजसः परमाणु वा वायवीयपरमाणु द्व्य अनुकादौ यद्वय वा अधिक
द्वयणुकं तत्र द्वयणुकम् अनित्यम् अस्ति खलु.
आम् अनित्यम्
अनित्यं यस्तु यतोहि अणुकद्वयस्य परमाणुद्वयेन द्वयणुकस्य उत्पत्तिः भवति अतः तत्र नित्यः नास्ति द्वयणुकः. अतः अनित्यपदार्थः द्वयणुकः यः अस्ति तस्मिन् विद्यमानः तत्र रूपं वा इत्यादिगुणाः अपि ते अपि तत्र अनित्यमस्ति.
रसगन्धस्पर्श इति गुणाः तस्मिन् विद्यमानः अनित्यम्
अनित्यम् अस्ति.
अत्र च जलादौ रूपादिचतुष्ट चतुष्टया सम्भवेन यथा सम्भवेन ग्राह्यम्
रूपादिचतुष्टय असम्भवेन
असम्भवेन यथा सम्भवेन ग्राह्यम्
यथा सम्भवम् एव ग्राह्यम्
सम्भवम्
एव
ग्राह्यम्
यथा सम्भवम् एव ग्राह्यम् नाम तत्र रूपादिचतुष्टयं नाम तत्र रूपादिचतुष्टयं नाम रूपं
रसः
स्पर्शः तत्र चतुष्टयं रूपादिचतुष्टयं तत्र जलादौ सर्वत्र नास्ति खलु. किमर्थम्
यथा
तत्र रूपं कुत्र कुत्र वर्तते
रूपं तु पृथ्वी जल तेजसि
समीचीनं रसः
रसः पृथ्वी चतुष्टयमस्ति खलु रसस्य कृते
रसः पृथ्वी जले एव जले एव गन्धः
गन्धः पृथिव्यामेव
पृथिव्यामेव यतोहि तत्र गन्ध पृथिव्याः लक्षणमस्ति. हा स्पर्शः
स्पर्शः वायो भवति
वायो न भवति खलु भवति वा क्षम्यतां 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 मम दोषः. हा तत्र कुत्र कुत्र भवति
पृथ्व्यां भवति स्पर्श तेजसि वायौ अपि
हा जले अपि हा तर्हि तत्र स्पर्श तु सर्वत्र भवति किन्तु चतुष्टयमिति यदि वदामः तत्र सर्वत्र न भवति तत्र अतः रूपादिचतुष्टयम् असम्भवं साधारणतया चतुष्टयं नास्ति सर्वत्र अतः यथासम्भवम् एव ग्राह्यं नाम वयम् उक्तवन्तः अनित्यमस्ति नित्यमस्ति इति अर्थः कः यत्र भवति तत्र नित्यं वा अनित्यं वा इति चिन्तयतु सर्वत्र भवति सर्वत्र नित्यमस्ति सर्वत्र अनित्यम् इति तादृशं चिन्तनं नास्ति अत्र एतावत् यदि वयं वदामः तत्र अन्यत्र अपाकजम् अनित्यं नित्यम् अनित्यं च तत्र अस्माकं चिन्तनं किमस्ति नित्यगतं नित्यं नाम नित्यपदार्थौ नित्यपदार्थे नित्यमस्ति गुणः नाम जलीयपरमाणौ रूपम् इति अस्ति सः नित्यः गुणः खलु. रसः इति गुणः जले वर्तते जलपरमाणौ वर्तते सः अपि नित्यः. स्पर्शः अपि शीतस्पर्शः इति तत्र जल जलपरमाणु वर्तते सः अपि नित्यः गन्धः न वर्तते अतः तस्य विषयः नास्ति अतः एव यथासम्भवम् एव ग्राह्यं तथैव ग्राह्यं तथैव चिन्तनम् इति अस्ति विस्तरः अन्यत्र नाम एतस्य विस्तारेण अन्यत्र पठामः इति अस्ति अस्तु समीचीनं भगिनि हा इदानीं तत्र एकमेव तत्र अस्ति तस्य विषयः तत्र योगेन्द्रमहोदय धन्यवादः भगिनि इदानीं योगेन्द्रमहोदय
तत्र परमाणु नित्यं किन्तु द्वयणुकादौ अनित्यम् अस्ति इति अस्ति
हा सत्यं भगिनि यत् यतोहि तत्र पुस्तकम् इति स्वीकुर्मः तत्र पुस्तकं नित्यं वा अनित्यं वा
पुस्तकम् अनित्यम्
अनित्यं नाम तत्र यस्य अवयवाः सन्ति अनित्य हा तस्य अनित्यः अनित्यपदार्थः अतः परमाणोः तत्र अवयवाः न सन्ति तस्य खण्डं न कर्तुं शक्नुमः अतः तत्र परमाणुः नित्यपदार्थः द्वयणुके परमाणुद्वयं भवति त्रयणुके तत्र द्वयणुकत्रयं भवति इति कृत्वा नाम षड् परमाणवः सन्ति त्रयणुके अतः त्रयणुकमपि अनित्यपदार्थः चन्द्रमति समीचीनं खलु
अस्तु
अतः तत्र जलपरमाणुः अस्ति चेत् तस्मिन् विद्यमानः रूपं नित्यमस्ति किन्तु द्वयणुक जलद्वयणुकम् अस्ति चेत् तस्मिन् विद्यमानः रूपम् अनित्यम् इति
अस्तु परमाणु लघु अस्ति
तस्य तत्र चक्षुषा तत्र न गृह्यन्ते तत्र चक्षुषा तस्य तेषा तयोः ग्रहणं न भवति परमाणोः ग्रहणं वा द्वयणुकस्य ग्रहणं वा न भवति किन्तु त्रयणुक अपि ततः आरभ्य तेषां
द्रष्टुं
वयं हा तत्र ग्रहणं भवति चक्षुषा नाम तत्र परिमाणम् इति दृष्टवन्तः खलु तत्र परमाणुपरिमाणं महत्परिमाणम् अपि मध्यमपरिमाणम् तत्र मध्यमत्रयणुक आरभ्य मध्यमपरिमाणम् अस्ति अतः तेषां तत्र ग्रहणं भवितुम् अर्हति इति अस्तु इदानीं समीचीनं भगिनि अन्यप्रश्नः अस्तु तर्हि तत्र योगेन्द्रमहोदय तत्र नित्यगतं नित्यम् अनित्यगतम् अनित्यं नाम किमस्ति
नित्यगतं नित्यम् अनित्यगतम् अनित्यम्
नाम परमाणु नित्यः अस्ति
परमाणु नित्य अस्ति तत्र यः गुणः अस्ति सः नित्यम् अस्ति
सः समीचीनम्
अनित्य यः गुणः अस्ति अनित्यद्रव्ये यः गुणः अस्ति सः अनित्यं
सः गुणः अनित्यः अस्ति समीचीनं महोदय तथैव हा अतः नित्यगतं नित्ये वर्तते नित्यगतं नाम वर्तते नित्ये वर्तते यः गुणः वर्तते सः अत्र रूपादिचतुष्टये तत्र रूपं वा रसः वा सः नित्यः भवति अनित्यपरमा अनित्य पदार्थः अस्ति चेत् तस्मिन् विद्यमानः गुणः अपि अनित्यः अस्ति नाम
अनित्यः
नाम पुस्तकं तत्र नीलपुस्तकम् अस्ति नीलरूपपुस्तकम् अस्ति तत्र पुस्तकं तु नित्यपदार्थः नास्ति तर्हि पुस्तकस्य नाशः यदा भवति तदा नीलरूपं तिष्ठति वा तस्मिन् विद्यमानः नीलरूपं
गुणस्य नाशः भवति
गुणस्य अपि नाशः भवति अतः अनित्यः अस्ति अतः एव तत्र अनित्यपदार्थ पदार्थे अस्ति चेत् गुणः सः गुणः अपि अनित्यः अस्ति. अतः नित्यगतं नित्यम्, अनित्यगतम् अनित्यम्. एतत् सर्वं तत्र तर्कसङ्ग्रहे यत् वाक्यमस्ति तदेव अत्र दत्तमस्ति. इदानीं तत्र एकमेव तत्र वाक्यं यत् वयं न पठितवन्तः, नाम वक्ष्यमाणप्रकारेण कारणगुणेभ्यः जायते. तत्र किमस्ति, किञ्चित् पठित्वा वदतु महोदय.
वक्ष्यमाणप्रकारेण कारणगुणेभ्यः जायते. वक्ष्यमाणप्रकारः अतः प्रायः चक्षुषा द्रष्टुं शक्यते.
वक्ष्यमाणः नाम अग्रे पश्यामः. वक्ष्यमाणप्रकारेण नाम यद् भवान् चिन्तितवान् तदपि समीचीनं, किन्तु अत्र यत् पश्यामः अग्रे पश्यामः वक्ष्यमाणप्रकारेण नाम अग्रे यत् पश्यामः किमस्ति, कारणगुणेभ्यः गुणेभ्यः जायते. नाम तत्र घटः अस्ति, अपि घटस्य कारणमस्ति कपालिका, खलु? कपालः. तर्हि तत्र घटस्य कारणमस्ति कपालः. तत्र कपालः अस्ति, अपि घटः अस्ति. तर्हि तत्र घटः तत्र रक्तरूपम् अस्ति घटे इति चिन्तयतु. घटे रक्तरूपम् अस्ति चेत् तत्र कपाले किं रूपं वर्तते?
रक्तरूपमेव वर्तते.
रक्तरूपमेव, रक्तरूपं कपाले रक्तरूपम् अस्ति इति कृत्वा एव घटे रक्तरूपं भवति, खलु?
आम्, कपाले रक्तरूपम् अस्ति अतः एव घटे अपि रक्तरूपमस्ति,
रूपमस्ति, खलु? अतः एव तत्र रूपं, रसः, गन्धः, स्पर्शः ये सन्ति कार्ये, तत्र कार्यमस्ति घटः, कारणमस्ति कपालः. अतः तत्र कारणगुणेभ्यः जायते, नाम कार्ये यः गुणः अस्ति सः गुणः कथं जायते, तस्य उत्पत्तिः कथं भवति?
कारणगुणेभ्यः,
गुणेभ्यः, गुणेभ्यः इति तत्र विभक्ति का अस्ति?
पञ्चमी बहुवचन,
पञ्चमी, हा पञ्चमी. तस्मात् कारणात्,
तस्मात् कारणात्
कारणगुणात् गुणः जायते. नाम कपाले तत्र रक्तवर्णः अस्ति इति कृत्वा घटे अपि रक्तवर्णः भवति. घटे विद्यमानरक्तवर्णस्य कारणमस्ति कपाले
विद्यमानः रक्तवर्णः,
अतः कारणगुणः इत्युक्ते कारणे विद्यमानः गुणः, कारणे विद्यमानः गुणः कारणगुणः, तस्मात् एषः गुणः जायते. नाम कारणे विद्यमानः गुणः यः अस्ति, तस्मात् गुणात् कार्ये विद्यमानः गुणः जायते इति वयम् अग्रे द्रक्ष्यामः. नाम घटस्य कारणमस्ति कपालः, घटे रक्तवर्णः अस्ति, रक्तवर्णस्य कारणम् अस्ति, एकं कारणं तु अस्ति घटः, यतोहि घटः नास्ति चेत् घटे रक्तवर्णः यः अस्ति सः अपि न भवति. अतः रक्तवर्णस्य एकं कारणम् अस्ति घटः, किन्तु रक्तवर्णस्य अन्यत् कारणम् अस्ति रक्तवर्णः यः कपाले वर्तते. तत्र वयं पूर्वं पठितवन्तः, तत्र समवायीकारणम् असमवायीकारणं निमित्तकारणम् इति वयं पूर्वं पठितवन्तः. सः विषय अग्रे आगच्छति पुनः. अतः तत्र पक्ष्यमाणप्रकारेण इति उक्तम्. अतः तावदेव अस्ति महोदय. अत्र अपि अग्रे तत्र बहु समीचीनमस्ति. तत्र रूपादिलक्षण रूप रस गन्धः अपि स्पर्शः तेषां तेषां लक्षणं लक्षणवाक्यानि वयं पठितवन्तः. अग्रे तत्र किं भवति अन्वयसहचार इति पदार्थनिरूपणं. तत्र अन्वयसहचारः इति प्रमुखविषयः अस्ति. एषः विषयः अग्रिमे सप्ताहे अस्माकं मूलविषयः भवति. तत्र सहचारस्य इति पदार्थस्य निरूपणम् अग्रे भवति. अतः तत्र नूतनविषयः आगच्छति. लक्षणः लक्षणवाक्यम् इति नास्ति. तत्र अन्वयव्यतिरेकः एतस्य ज्ञानं तत्र अग्रे गत्वा यदा वयम् अनुमानम् इति कुर्मः, तत्र इन्फरेन्स् इति कुर्मः, तत्र धूमवान् पर्वतः, पर्वतः धूमवान् इति कृत्वा तत्र वायुः तत्र अग्निः तत्र पर्वते अस्ति इति तत् एतत् सर्वं तत्र इन्फरेन्स् इति यत् वदामः तस्मिन् सन्दर्भे तत्र अन्वयव्यतिरेकस्य महत्त्वं भवति. एषः विषयः एव अग्रिमे सप्ताहे कुर्मः. बहु समीचीनमस्ति. धन्यवादाः, नमस्काराः. अग्रिमे सप्ताहे मिलामः.
धन्यवादः.
धन्यवादः.
धन्यवादः.